एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य काष्ठमण्डपे सञ्चल्यमाने स्थायी समितेः उपवेशे ह्य एकविंशतिः सदस्याः धारणां व्यक्तवन्तः। गतदिवसीयोपवेशेऽपि शुक्रवासरतः प्रारब्धे नेपाल भारतयोर्मध्ये विद्यमानायाः सीमा समस्यायाः समाधानस्य विषय एव विमृष्टम्। नेतृणां सम्भाषणक्रमः अवशिष्टश्च अस्तीति नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत्। ह्यस्तनोपवेशे भाषमाणैः नेपालस्य सम्पूर्ण भूभागैः समाविष्टस्य मानचित्रस्य प्रकाशने संविधान संशोधने च धृतान् राष्ट्रियैकतां संस्थाप्य सीमा सम्बद्धानां सर्वासां समस्यानां समाधानाय प्रयतितुं बलं प्रदत्तमिति प्रवक्ता श्रेष्ठः बोधयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समितेः उपवेशः अस्यैव आषाढस्य षोडशे दिवसे पूर्वाह्नस्य एकादश वादने पुनर्वस्ता। नेपाले गतदिने सलवाह दृष्टाः सन्ति। बारा पर्सा सर्लाही रूपन्देही सिन्धुली प्रवृत्तिषु जनपदेषु सलवाह दृष्टाः सन्तीति कृषि पशुपक्षी विकास मन्त्रालयस्य प्रवक्ता डाक्टर हरिबहादुर केसी अज्ञापयत्। कृषेः नाशकाः उत्प्लव कीट प्रजातेः एते सलवाह गतदिने द्वितीय पञ्चम प्रदेशयोः दृष्टाः सन्तोऽपि अद्यावधि महती क्षति न सम्भूता। एतदनुसन्धानार्थं प्राविधिक समूह तत्र प्रेषितोऽस्तीति च प्रवक्ता केसी अवोचत्। गतदिने रूपन्देही जनपदस्य बुटवल स्थितेषु गोलपार्क सुखानगर शिवनगर क्षेत्रेषु सलवानां दृष्टेः अनन्तरम् एतेषां नियन्त्रणाय पञ्चम प्रदेश सर्वकारेण आन्तरिकं गृहकार्यं प्रारब्धमस्ति। गतसायम् आन्तरिक विषय विधि भूमि व्यवस्था कृषि सहकारी मन्त्रालयाभ्याम् उपवेशम् आयोज्य सलवानां नियन्त्रणाय आवश्यक रणनीतिः निर्धारिता अस्ति। उपवेशे कृषकान् सचेष्टाः कारयितुं प्रचार प्रसाराभ्याम् सम्प्रति कृषेः रहितस्थलेषु स्थितान् सलवान् नाशयितुं विषादि प्रयोगाय सलवान् एकीकृत्य स्वीय वडा कार्यालये कीटेषु प्रापितेषु प्रति केजि परिमितं विंशतेः रूप्यकाणां प्रदानाय च निर्णीतमिति पञ्चम प्रदेशस्य कृषि विकास निर्देशनालयस्य प्रमुखः यामनारायण देवकोटा अबोधयत्। गतदिने अतिरिक्तेषु पञ्चशते चतुःपञ्चाशति च जनेषु कोरोना विषाणोः संक्रमणं पुष्टिभूतं वर्तते। एतदनुसारेण नेपाले समग्रतः संक्रान्तानां जनानां संख्या द्वादश सहस्राणि शतत्रयं नव च प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः विभिन्नासु प्रयोगशालासु विहिते परीक्षणे ह्य अतिरिक्तेषु शतश्चतुष्टये चतुस्त्रिंशति च पुरुषेषु विंशत्यधिक शते महिलासु च संक्रमणं पुष्टिभूतमिति अज्ञापयत्। एवमेव गतदिने अतिरिक्ताः षड्त्रिंशदधिक शतं जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः अभवन्। एतदनुसारेण विषाणोः संक्रमणात् मुक्तिं प्राप्य गृहं प्रत्यावृतानां जनानां समग्रसंख्या सहस्रद्वयम् अष्टशतं चतुस्त्रिंशत् च प्राप्ता वर्तते। एवमेव कैलाली जनपदस्य गोदावरी नगरपालिकायाः सप्तम वडा क्षेत्रस्य पञ्चाशत् वर्षीयस्य पुष्टिभूत संक्रमणस्य पुरुषस्य उपचारस्य क्रमे ह्यो मृत्युः अभवत्। क्लोमस्य अर्बुद रोगेण पीडितः सः पुरुषः भरतपुर चिकित्सालयस्य एकान्तवासे उपचारस्य क्रमे मृत इति मन्त्रालयसो ज्ञापयति। ह्य अतिरिक्तस्य एकस्य संक्रान्त जनस्य मृत्युना सहैव संक्रमणस्य पुष्ट्या सहैव मृतानां जनानां संख्या अष्टाविंशतिः प्राप्तास्ति। हिमालये रसुवा जनपदे ह्य प्रथमवारं कोरोना विषाणोः संक्रमणं पुष्टिभूतं वर्तते। कुवेत भारत देशाभ्याम् आगतेषु नवसु जनेषु ह्य कोविड उनविंशतेः संक्रमणं पुष्टिभूतम् अस्तीति जनस्वास्थ्य कार्यालयो ज्ञापयति। रसुवा जनपदे संक्रमणस्य पुष्ट्या सहैव सम्प्रति राष्ट्रस्य सप्तसप्ततिः एव जनपदाः कोरोना विषाणुतः प्रभाविताः सन्ति। विदेशात् आगतानां सप्तदश जनानां निदर्शनं परीक्षणाय काष्ठमण्डपस्य एकुवर्तिन्यां जनस्वास्थ्य प्रयोगशालायां प्रेषितम् आसीत्। ततो नवानां जनानां कोरोना परीक्षण विवरणं लक्षणयुतं प्राप्तं। तदनुते उपचाराय जीवजीवे वर्तिनो ग्रामीण जनस्वास्थ्य चिकित्सालयस्य एकान्तवासे नीताः सन्ति। तनहु जनपदस्य रिसिङ ग्रामपालिकाया षष्ठ वर्षीयेण बालकेन कोरोना संक्रमणं विजितं वर्तते। अस्यैव आषाढस्य एकादश दिवसे कोरोना विषाणो पुष्टिभवन मनु शुक्ला गण्डकी नगरपालिकाया पञ्चमवडा क्षेत्रवर्तिनी जीपी कोइराला श्वास प्रश्वासोपचार केन्द्रे उपचाररतस्य एक वर्षीय बालकस्य पीसीआर परीक्षण विवरणं रोगरहितं प्राप्तं वर्तते। आषाढस्य एकादश दिवसे पीसीआर विधेः परीक्षणाय निदर्शनं प्रेषितम्। प्राप्तस्य परीक्षण विवरणस्य अनुसारेण बालकोऽसौ कोरोना संक्रमणात् मुक्तः अभवत् इति उपचार केन्द्रस्य निमित्त कार्यकारी निर्देशकः डाक्टर रामकुमार श्रेष्ठः अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड उनविंशतेः संक्रमणस्य निरोधन नियन्त्रणयोः कृते संक्रमण निवारण पट्टिकां न प्रयोक्तुं सर्वे अनुरुद्धाः सन्ति। अद्यावधि कोविड उनविंशतेः संक्रमणं रोद्धुम् एवंविधा न कापि पट्टिका निर्मितास्थिति कारणेन तां न प्रयोक्तुं मन्त्रालयेन सर्वे अनुरुद्धाः वर्तन्ते। मन्त्रालयस्य प्रवक्त्रा डाक्टर जागेश्वर गौतमेन कतिचित् प्रतिष्ठित व्यक्तिभिः एव कोविड उनविंशतेः संक्रमणं न भवति इति निगद्य संक्रमण निवारण पट्टिका प्रयुक्तेति कारणेन तथा न कर्तुम् अनुरुद्धं वर्तते। असौ तथाविदायी कस्यैश्चित् पट्टिकायै सर्वकारेण स्वीकृतिः न प्रदत्ता अस्तीति कारणेन भ्रमं न धर्तुं च अन्वरुणत्। चितवन चिकित्सा महाविद्यालयेन 30 शय्यायाः कोविड उनविंशतेः सघनोपचार कक्षाः संस्थापिताः सन्ति। महाविद्यालयस्य अध्यक्ष प्रबन्ध निर्देशकश्च प्राध्यापकः डाक्टर हरिशचन्द्र न्यौपाने अवोचत् 30 शय्यायाः सघनोपचारोपकरणैः सहिताः सौविध्य सम्पन्नाः सघनोपचार कक्षाः भविष्यन्ति। नेपाली कांग्रेस दलस्य पदाधिकारिणाम् उपवेश अद्य उपविशति। सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालये अद्य अपराह्नस्य 2 वादने उपविश्यमाने उपवेशे दलस्य 14 महाधिवेशनस्य कार्यतालिकायाः विषये विमृश्यते इति दलस्य उपसभापतिः विमलेन्द्र निधिः अज्ञापयत् इति समाचाराः।